ज्ञानदिविरण्डस्य ज्ञानञ्जनाशलाकाय चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। विष्णोर्यत्परमं पदम्।